अभिनन्दनानि सूचयतु भगिनि, वयमपि सूचयामः सन्देशम्. अस्तु, सरस्वती नमस्तुभ्यं वरदे कामरूपिणि, आरम्भं करिष्यामि सिद्धिर्भवतु मे सदा. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, यामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन् कृते यजन् आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्, वन्दे संस्कृतमातरम्. वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये, परौ वन्दे पार्वती परमेश्वरौ. अद्य वयं नव अथवा दश श्लोकानां सारांशं पश्यामः. यद्यपि एतेषां तात्पर्यम् अर्थम् इत्यादिकं वयं पूर्वमेव दृष्टवन्तः, तथापि सङ्ग्रहेण एकवारं पश्यामः इति एव अद्य चिन्तनमस्ति. एकपञ्चाशत्तमः श्लोकः. दिलीप सुदक्षिणादिलीपौ समीपे प्राप्तवन्तौ. आश्रमसमीपे इति चेत् उटजानि भवन्ति, लघुगृहाणि. तत्र पूर्वमेव दृष्टं यत् आश्रमकुमाराः बालाः वनात् सायङ्काले आगच्छन्तः सन्ति, समिद्धस्ताः, हस्ते समिद् अस्ति, कुशाः सन्ति, काष्ठमस्ति, तत्सर्वं हस्ते. ते बालाः आश्रमकुमाराः आगच्छन्ति इति पूर्वं दृष्टम्. इदानीम् आश्रमकन्याः किं कुर्वन्ति सायङ्काले इति चेत्, लघुवृक्षकाः सन्ति आश्रमे. तान् वृक्षकान्, वृक्षकाः नाम लघुवृक्षः, बालवृक्षः, बालवृक्षाणां कृते जलदानम् इति कार्यं प्रचलति. कन्याः तत् कार्यं कुर्वन्ति. ताः किं कुर्वन्ति? बहु सुन्दरं दृश्यम् एतत्. कविना वस्तुतः साक्षात् दृश्यं चित्रितमस्ति पदैः. किं वदति इत्युक्ते, मुनिकन्याः जलं सिञ्चन्ति. यदा वृक्षकं परितः जलस्य स्थानाय स्थितये लघुगर्तः भवति किल, तस्मिन् जलं तिष्ठति. ते किं कुर्वन्ति? ते जलसेचनं कुर्वन्ति, झटिति तत् स्थानात् निर्गच्छन्ति. कुत्रापि उटजस्य द्वारस्य पृष्ठतः वा कुत्रापि तिष्ठन्ति. एवं किमर्थं कुर्वन्ति इति चेत्, तत् जलं पातुं लघुपक्षिणः आगच्छन्ति. तेषां पक्षिणां भीतिः मा भवतु, तथा मुनिकन्याः कुर्वन्ति इति श्लोकः. श्लोकं पठित्वा तस्य पदपदार्थम् अनन्तरं तात्पर्यं च पश्यामः. सेकान्ते मुनिकन्याभिः तत्क्षणोज्झितवृक्षकं विश्वासाय विहङ्गानाम् आलवालाम्बुपायिनाम्. एतस्य अन्वयः भवति सेकान्ते, जलसेचनान्ते. सेकान्ते मुनिकन्याभिः ఆలవాలాంబుపాయినాం విహంగానాం విశ్వాసాయ తత్క్షణోజ్జిత వృక్షకం ఆశ్రమం సహ ప్రాపత్. ఆశ్రమం ప్రాపత్ ఇది పూర్వతన శ్లోకాత్. తత్క్షణోజ్జిత వృక్షకం ఇది చేత్ యస్మిన్ క్షేత్రే వృక్షకాః సంతి తాన్ వృక్షకాన్ త్యక్త్వా ఏతాః కన్యాః దూరం గచ్చంతి జలసేచన అనంతరం ఇది అర్థః. సమాసః యదా పదాని పశ్యామః తదా అవగచ్ఛామః. అన్వయార్థః ప్రతిపదార్థః ఏవం భవతి. సేకాంతే వృక్షమూలస్య సేచన అవసానే, అవసానే నామ అంతే. మునికన్యాభిః ఆశ్రమ కుమారీభిః ఆలవాలాంబుపాయినాం. ఆలవాలం ఇత్యుక్తే తరుమూల సేచనార్థం స్వల్ప జలాధారః, కించిత్ జలం స్థాతుం తత్ర ఏక లఘు ఆధారః కర్తః. యది ఆలవాలః న నిర్మిత, ఆలవాలః న నిర్మితం భవతి తర్హి కిం భవతి, తజ్జలం వ్యర్థం బహిర్గచ్చతి. అతః తజ్జలస్య తత్ర ఏక లఘు గర్తం అగాధ గర్తం నిర్మితం భవతి. గాధగర్తం, గాధగర్తం, గాధ ఇత్యుక్తే శాలు. సేకాంతే గాధ ఇత్యుక్తే శాలో, అధికం గభీరం న భవతి, శాలో పిట్ ఇది అర్థం. జ్ఞానం ఇది వదంతి కిల ఇత్యుక్తే అగాధ ఇత్యుక్తే వెరీ డీప్ ఇది అర్థం. గాధ ఇత్యుక్తే శాలో. ఆలవాలాంబు పాయినాం విహంగానాం తత్ర తరుమూల జల ఆధాన స్థానే తత్ర విద్యమానస్య జలస్య జలం పాతుం విహంగానాం పక్షిణాం తజ్జలం పాతుం ఏ పక్షిణః ఆగచ్చంతి తేషాం పక్షిణాం విశ్వాసాయ విశ్రంభాయ పక్షిణః నిర్భీకాః భూత్వా జలం పిబంతు ఇతి కృత్వా వృక్షకం ఆశ్రమం సహ దిలీపః ప్రాపత్. తత్క్షణే ఏవ యస్మిన్ క్షణే జలదానం భవతి తస్మిన్ క్షణే ఏవ తాః కన్యాః తత్ స్థానం ఉజ్జంతి త్యజంతి త్యక్త్వా దూరం గచ్చంతి. స్థానం ఉజ్జితం భవతి. కిం స్థానం? వృక్ష సామీప్యం, వృక్షకాణాం సామీప్యం త్యక్త్వా తే కించిత్ దూరే గత్వా తిష్ఠంతి. యస్మిన్ క్షణే ఏవ తత్ వృక్ష సామీప్యం త్యజంతి తాదృశ క్షేత్రం సహ దిలీపః ప్రాప్తవాన్ ఇది. అత్ర తాత్పర్యం ఏమస్తి? ఆశ్రమే దృశ్యం కిం దృశ్యం ఇది చేత్ ఆశ్రమస్థాః కుమార్యః లఘు వృక్షాన్ జలేన సించంతి. ఆవాపు ప్రదేశేషు యత్ జలం అవశిష్టం భవతి విద్యమానం కించిత్ కాలం తిష్ఠతి కిల తత్ జలం పాతుం పక్షిణః విశ్రంభతయా ఆగచ్చంతు భయం మా ప్రాప్నువంతు ఇతి మత్వా కన్యాః జలసేచనస్య సమనంతరమేవ తతః నిర్గచ్చంతి దూరం గచ్చంతి. తాదృశాః లఘువృక్షాః యత్ర ఆసన్ తం ఆశ్రమం దిలీపః ప్రాప్తవాన్ ఇతి ఏవ ఏతస్య ఆశయః. తత్క్షణోజ్జిత వృక్షకం ఇత్యుక్తే తస్మిన్ క్షణే ఉజ్జితాః యస్మిన్ ఆశ్రమే తత్ ఆశ్రమం తం ఆశ్రమం సహ ప్రాపత్ ఇతి. తక్షణోజ్జిత వృక్షక ఇతి పదం బహువ్రీహి సమాసేన ఏతస్య విశేషణం భవతి. ఆశ్రమ ఇతి పదస్య విశేషణం భవతి. ఉజ్జిత నామ త్యక్త. పంచాశత్తమః శ్లోకః. ఇదానీం వృక్షాణాం విషయ వర్ణనం జాతం. ఆశ్రమ బాలానాం సాయంకాలే ఆగమనం ప్రత్యాగమనం ఇతి విషయ దృశ్యమపి వర్ణితం. इदानीं किं दृश्यम् इति चेत् आश्रमे हरिणाः सन्ति. मृगाः हरिणाः किं कुर्वन्ति सायङ्काले? उपविश्य धान्यानि हरिणानाम् अनन्तरं गवां धेनूनां बहूनां पशूनां कश्चन स्वभावः. किं कुर्वन्ति? आदौ यदा ते चरन्ति, यदा ते चलन्तः अटन्तः तृणं धान्यं खादन्ति, प्रथमं सर्वं वेगेन मुखे स्वीकुर्वन्ति. इदानीम् अधिकं चर्वणं न कुर्वन्ति, केवलं निगिलनं स्वीकुर्वन्ति, मुखे स्थापयन्ति गळमागे. अनन्तरम् एकत्र उपविश्य वृक्षच्छायायां वा कुत्रापि उपविश्य चर्वन्ति. तदेव रोमन्थनम् इति कथ्यते. तत् कार्यं ते हरिणाः कुर्वन्ति. किं किं चर्वन्ति उपविश्य? नीवारधान्यानि. नीवारम् इत्युक्ते स्थानेषु यद् धान्यं भवति तस्य नाम नीवारः. पूर्वमेव दृष्टमासीत् नीवारस्य वपने, नीवारस्य विकासे बहु अधिकः श्रमः न कर्तव्यः. किञ्चित् वपन्ति, वृष्टिजलं पतति, तेन एव तत् वर्धते, तेन एव आश्रमजनाः तद्धान्यं स्वीकृत्य खादन्ति. कारणं ते कृषिकाः न, ते स्वयमेव किमपि वपन्ति, तद् सरलतया रोहति. तस्य वर्धने, रोहणे, कर्तने बहु अधिकसमयः न अपेक्षितः, बहु अधिकः श्रमः न अपेक्षितः इति एव नीवारधान्यस्य वैशिष्ट्यं. तदेव नीवारधान्यं तत्रत्य पशवः हरिणाः अपि खादन्ति. ते किं कुर्वन्ति इति विस्तरेण श्लोके पश्यामः. आतपात्ययसंक्षिप्तनीवारासु निषाधिभिः मृगैर्वर्तितरो मन्थम् उटजाङ्गनभूमिषु. अत्र पुनः अध्याहारः अस्ति आश्रमं प्रापत्. आश्रमं द्वितीयाविभक्ति, अतः अत्र तस्य विशेषणं किं द्वितीयाविभक्त्यान्ते? वर्तितरोमन्थम् आश्रमं प्रापत् इति अस्ति. अन्वयः अस्ति आतपात्ययसंक्षिप्तनीवारासु आङ्गनभूमिषु निषादिभिः मृगैः वर्तितरोमन्थम् आश्रमं प्रापत् दिलीपः. कुत्र प्राप्तवान् आश्रमं? कीदृशम् आश्रमं? वर्तितरोमन्थं, यत्र मृगाः वर्तित उपविश्य उपविष्टैः मृगैः रोमन्थं क्रियते, रोमन्थनं क्रियते इत्युक्ते चर्वितस्य एव धान्यस्य चर्वणं, पुनश्चर्वणं क्रियते. वर्तितं, वर्तयन्ति, तत् कार्यं कुर्वन्ति. यत्र भवति तत् स्थानं कदा कुर्वन्ति? आतप अत्यये, आतपस्य अपगमे. यदा आतपः सायङ्काले गतः भवति, सूर्यातपः अधिकः नास्ति. संक्षिप्तनीवारासु, नीवारधान्यानां राशयः सन्ति तत्र तत्र, धान्यराशयः. किमर्थम् इत्युक्ते मातरः, आश्रममातरः धान्यानि आतपे शोषणार्थं स्थापयन्ति. तद् सायङ्काले राशीकृतं भवति पुनः गृहेषु नेतु. तद् तादृशं नीवार संक्षिप्तनीवारासु, नीवार धान्यानां राशयः सन्ति किल, उटज अङ्गनभूमिषु, उटजानां लघुगृहाणाम् अङ्गनानां स्थलं, भूमिः यत्र अस्ति तादृशस्थलेषु निषादिभिः उपविष्टैः निषीदति, उपविशति. सद् धातुः, सदृधातुः निषीदति इति, सीदति इति भवति, नि इति उपसर्गः अस्ति कारणेन निषीदति. निषादिभिः, निषादिनः तत्र उपवेशनं तेषां शीलं प्रतिदिनं प्रतिसायं ते च मृगाः निवारधान्यानां समीपे उपविशन्ति इति कारणेन एव निषादिभिः निषादिनः इति मतुवर्थे प्रत्ययः अस्ति. तत्र उपवेशनं तेषां शीलं प्रतिदिनं तथा कुर्वन्ति तादृशैः मृगैः वर्तितरोमन्थम् आश्रमं सः प्रापत्. मृगाः धान्यानां चर्वितानां धान्यानां पुनः चर्वणं क्रियते इति अत्र भावः. अस्मिन् श्लोके आश्रमस्य अन्यतेकं सुन्दरं दृश्यम्. मेः आश्रमस्य पर्णशालायां चतुर्प्रदेशेषु पर्णशालानाम् अङ्गनं भवति बहिः कोट्याड् इति. तत् अङ्गनप्रदेशेषु तृणधान्यानि राशीकृतानि भवन्ति. तृणधान्यानां राशयः भवन्ति, हीप्स् भवति. आतपस्य अपगमे सति यदा आतपः गतः भवति तदा मृगाः तत्र रोमन्थाय चर्वितानां धान्यानां पुनश्चर्वणाय सुखेन उपविष्टाः. सुखेन किमर्थम्? खादितुं धान्यमस्ति, कोऽपि प्रेषयिता नास्ति, आतपः अपि नास्ति, अतः सुखेन उपविष्टाः ते मृगाः. एतत् सुन्दरं दृश्यं दम्पती अपश्यताम्. सुदक्षिणादिलीपौ पश्यतः. इत्युक्ते चूयिङ्ग् द कड् इति वदामः किल, पशूनां कश्चन स्वभावः तेषां
चर्वन्ति, सममेव अर्थं
चर्वन्ति. किन्तु सामान्यचर्वणं यथा मनुष्याः कुर्वन्ति न तथा. प्रथमं स्वीकुर्वन्ति मुखे धान्यानि तृणं सर्वं यदा ते चरन्ति तदा ग्रेजिङ्ग् समये. अनन्तरम् उपविश्य मन्दं सर्वं चर्वन्ति किल, च्यूयिङ्ग् द कड् इति आङ्ग्ले यद् वदन्ति तदेव संस्कृते रोमन्थः इति अर्थः. त्रिपञ्चाशत्तमः श्लोकः. यदा सुदक्षिणादिलीपौ आश्रमस्य इतोपि समीपे प्राप्तवन्तौ तदा कश्चन गन्धः आगच्छति, वायुना गन्धः नीतः भवति. कः गन्धः इत्युक्ते आहुतेः गन्धः. आश्रमे यज्ञकार्यं प्रचलति, यज्ञकुण्डतः अग्निः उत्थितः भवति, तस्य धूमः प्रसरति. सः धूमः बहिः आश्रमस्य बहिर्भागे अपि द्रष्टुं शक्यते. अनन्तरं तस्य गन्धः अपि भवति, कारणं हविष् सामग्री अस्ति किल, तेषां गन्धः अपि तत्र ते आघ्नातुं शक्नुवन्ति. तदेव उक्तमत्र, धूमः तेषां सुदक्षिणादिलीपाभ्यां तद् आघ्नातुं शक्यते. आश्रमस्य अन्तः भागे यज्ञकार्यं प्रचलति इति अवगच्छन्ति सर्वे अपि. पुनः किं, सः धूमः आगन्तॄन् अतिथीन् पुनाति, पावयति, पवित्रीकरोति. श्लोकः अस्ति, अभ्युत्थिताग्निपिशुनैः अतिथीनाश्रमोन्मुखान् पवनोद्धूतैः धूमैराहुतिगन्धिभिः. एतस्य अन्वयः अभ्युत्थिताग्निपिशुनैः पवनोद्धूतैः आहुतिगन्धिभिः धूमैः आश्रमोन्मुखान् अतिथीन् पुनानम् आश्रमं दिलीपः प्रापत्. दिलीपः कीदृशम् आश्रमं प्रापत् अध्याहारः क्रियते आश्रमं प्रापत् पुनानम् आश्रमं पवित्रीकुर्वन्तम् आश्रमं केन तत् पवित्रीकरणं क्रियते कः पवित्रीकरणम् इति कार्यं करोति धूमः आश्रमस्य अन्तः यज्ञशालातः उत्थितः धूमः पवित्रीकरोति कौ पवित्रीकरोति ये सुदक्षिणा दिलीपौ अभ्युत्थितापिशुनैः अत्र पिशुना इति पदस्य अर्थः अस्ति सूचक पिशुना इति अन्य अर्थः भवति पिशुनः इत्युक्ते सामान्य अन्य अर्थः अस्ति यः निन्दापरः अन्येषां निन्दनं करोति दुष्टः इति किन्तु अत्र पिशुनः इत्युक्ते सूचक तर्के अपि पठामः किल धूमं दृष्ट्वा अग्निः अस्ति इति ऊहितुं शक्यते ज्ञातुं शक्यते तथा अग्निसूचकं तद् धूम पवनेन आनीतः धूमः कीदृशः धूमः आहुतिगन्धयुक्तः नाम आहुति अस्ति तेषां गन्धयुक्तः धूमः आश्रमं प्रति आगच्छतः अतिथीन् पुनानं पवित्रीकुर्वन्तं तादृशम् आश्रमं दिलीपः प्राप्तवान् एकः विषयः द्रष्टुं योग्यः भवति आरम्भे एव कविना उक्तम् अभ्युत्थितम् इति अभ्युत्थितम् अभ्युत्थानम् इति अर्थद्वयं भवति एकं तु उत्थानम् अधर्मस्य अभ्युत्थानम् इति भगवद्गीतायाम् अस्ति किल यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य अभ्युत्थानम् इत्युक्ते उपरितः उपरि उत्थानम् उत्तिष्ठति उपरि ऊर्ध्वभागे गच्छति इति अस्ति कस्यचित् अतिथेः स्वागतीकरणमपि अभ्युत्थानम् अतिथिं दृष्ट्वा गृहजनः अभ्युद्गच्छति अभ्युद्गमनम् इत्युक्ते तत्समीपं गमनम् अपि अर्थः अभ्युत्थानम् इति पदेन सूच्यते अत्र विशेषप्रयोगः कः इति द्रक्ष्यामः वसिष्ठाश्रमे यज्ञकुण्डतः उत्थितः भावार्थं पश्यामः वसिष्ठस्य आश्रमे यज्ञकुण्डतः उत्थितः आहुतिगन्धयुक्तः धूमः पवनप्रसृतः सन् पवनेन नीतः सन् आश्रमपरिसरं प्रविशन्तौ रथारूढौ इतोपि रथात् न अवतीर्णवन्तौ द्वौ अपि रथे एव स्तः रथारूढौ अतिथी सुदक्षिणा दिलीपौ सुदक्षिणा दिलीपौ पावयन् पवित्रीकुर्वन् आश्रमं पावयन् अस्ति सः धूमः तद् किं सूचयति आश्रमे मुनयः विधिपूर्वकं यागम् अनुतिष्ठन्ति इति यदा ते अग्नौ आहुतिं जुह्वति इत्युक्ते यदा ते अग्नौ हविर्दानं कुर्वन्ति तदा समिद्धहोमाग्नितः होमाग्निः इतोपि चलति किल प्रज्वलितहोमाग्नितः अभ्युत्थितः पवित्रः गन्धमयः धूमः वायुना आश्रमं परितः इतस्ततः नीतः सन् सर्वान् पुनाति पावयति पवित्रीकरोति अभ्युत्थितपदस्य अर्थद्वयं वयं द्रष्टुं शक्नुमः सामान्यवाच्यार्थः उपरितः उपरि भागे ऊर्ध्वभागे उद्गच्छति अर्थः अपि ग्रहीतुं शक्यः किमित्युक्ते अतिथीनां स्वागतीकरणाय आदरसूचकत्वम् अपि अत्र भवति अभ्युत्थितः धूमः अभ्यागतं दिलीपं पुनाति किन्तु परस्परप्रकटनं किल तेषां स्वागतं स्वागती
हेलो हेलो साउंड श्रूयते वा
सब प्रायः आगच्छति पुनः न श्रूयते किञ्चित् तिष्ठतु भगिनी आगच्छति पुनः
लाक्षणिकार्थः च ग्रहीतुं शक्यः अप्युतितः धूमः अभ्यागतं दिलीपं पुनाति दिलीपस्य
तत्र भिन्नभिन्न भवति तत्र अर्थस्य अर्थमेव भिन्नभिन्न भवति तत्र त्रिविधं भवति अर्थः तत्र लाक्षणिक इति एकं तादृशम् वाचिकार्थः कोशार्थः इव भवति कोशं पश्यामि चेत् तत्र किं कोशे अस्ति बुक् इति अस्ति वयम् अवगन्तुं शक्नुमः लाक्षणिकम् इति चेत् तादृशं परन्तु वयं तद् अवगच्छामः तादृशं किमपि तत्र भिन्न डेफिनेशन् एव भवति तत्र
नमस्ते भगिनि क्षम्यताम् लैपटॉप मध्ये इंटरनेट गतमस्ति दूरवाण्या कुर्वती अस्ति अस्तु अत्र वयं पूर्वमेव द्वादशे श्लोके दृष्टवन्तः किं दृष्टवन्तः तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः इति दिलीपस्य वंशः कथमस्ति शुद्धिमान् वंशः शुद्धिमति तस्मिन् वंशे शुद्धिमत्तरः दिलीपः प्रसूतः इति अस्ति तादृशस्य शुद्धिमत्तरस्य अपि शुद्धिं शुद्धीकरणे कस्य सामर्थ्यं होमाग्नेः एव कारणं पावकः अग्निः पावयति पवित्रीकरोति अतः अग्निः तौ पावयन् तयोः स्वागतीकरणं करोति इति एव अस्य श्लोकस्य विशेष अर्थः अत्र अस्ति श्रेयस्त्वम् आहुत्यग्नेः दिलीपस्य दिलीपः श्रेयान् अस्ति श्रेयः श्रेयान् श्रेष्ठ किल महान् महत्तरः महत्तमः इति तादृशं दिलीपस्य श्रेयस्त्वं श्रेयान् अस्ति आहुत्यग्निः श्रेष्ठः अस्ति इति एव अत्र सूचनम् तदन्वये शुद्धिमति प्रसूत शुद्धिमत्तरः तादृशस्य शुद्धिमत्तरस्य दिलीपस्य पुनानं पावनीकरणं पवित्रीकरणकार्यम् अग्निः करोति आदरप्रकटनाय अतिथौ समागते सति अभ्युत्थानम् अतिथौ प्रस्थिते सति आपृच्छा इति प्राचीना परम्परा यः कोऽपि अतिथिः आगच्छति वयम् उत्थाय गत्वा तस्य स्वागतं कुर्मः पुनः यदा सः बहिर्गच्छति तदा किं कुर्मः? द्वारपर्यन्तं वा, मार्गान्तपर्यन्तं वा, केचन ग्रामान्तपर्यन्तं वा गत्वा तेषाम् आपृच्छनं कुर्वन्ति। तदेव
भगिनी, लाक्षणिकार्थः अर्थं किम्?
हा, लाक्षणिकः अर्थः इत्युक्ते लक्ष्यार्थः, साक्षात् उक्तः अर्थः न, फिगरेटिव्लि स्पीकिङ्ग् इति वदामः किल, सः एव लिटरल् मीनिङ्ग्, फिगरेटिव् मीनिङ्ग्।
वाचिकार्थः लिटरल् मीनिङ्ग्, लाक्षिकार्थः फिगरेटिव् मीनिङ्ग्।
आमामाम्। अस्तु, अग्रिमं श्लोकं पश्यामः, चतुःपञ्चाशत् तमः श्लोकः। अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः, तामवारोहयत् पत्नीं रथादवततार च। अथ नाम किम्? तयोः आश्रमप्राप्तिः अभवत्, इदानीं रथः स्थगितः, रथः इतोपि न चलति। अथ तदनन्तरं यन्ता, रथस्य चालकं, यन्तारम् आदिश्य, आदेशं कृतवान्। किम् इति? धुर्यान् विश्रामय, धुर्याः नाम रथाश्वाः, रथस्य अश्वाः, तान् धुर्यान्, धुरं वहन्ति इति धुर्याः। धूः इत्युक्ते यद् भारवहन सामर्थ्यं यस्य अस्ति तद् एक्सेल् इति वदामः वाहनस्य, तथा भारः इति सामान्यार्थः। रथभारं कः वहति? अश्वः वहति। अतः धुर्यान् रथाश्वान्, अतः एव यः कोऽपि बहु भारं वहति, मुख्यकार्यं करोति, तस्य पृष्ठे एव सर्वमपि आरोपितं भवति इति चेत् धुरन्धरः इति वदन्ति। धुरं धरति इति धुरन्धरः, तथा अत्र धुरन्धराः के? अश्वः एव। धुरं वहन्ति किल, धुर्यान् अश्वान् विश्रामय, तेषां विश्रान्तिं कल्पय, जलदानं कुरु, तेषां कृते तृणदानं कुरु, तेषां विश्रान्तिः यथा भवेत् तथा कुरु इति आदेशं कृत्वा पत्नीं सुदक्षिणां रथात् अवारोहयत्, तस्याः अवरोहणम् अकारयत्, स्वयं च अवततार, स्वयं अवतीर्णवान्, अवरोहति, अवारोहयति, रोहयति। शब्दः बहु श्रूयते वा?
श्रूयते।
अथ धुर्यान् विश्रामय इति यन्तारमादिश्य सः दिलीपः पत्नीं रथादवारोहयत्, स्वयं च अवततार। अत्र अधिकं किमपि वैशिष्ट्यं नास्ति, धुर्याः इति एक पदमेव किञ्चित् अपरिचितं, धुर्याः नाम रथाश्वाः। दिलीपस्य रथः आश्रमं प्रति आगतः। राजा दिलीपः दीर्घप्रयाणेन, जलतृणादिदानेन श्रान्तानां रथाश्वानां श्रमस्य अपगमः यथा भवेत् तथा कल्पय इति सारथिम् अज्ञापयत्। राजा दिलीपः दीर्घप्रयाणेन श्रान्तानां रथाश्वानां जलतृणादिदानेन श्रमापगमः यथा भवेत् तथा कल्पय इति सारथिम् आज्ञापय। रथात् अवतरणे पत्न्याः सुदक्षिणायाः साहाय्यं कृत्वा अनन्तरं स्वयं रथात् अवतीर्णवान्, दिलीपराजः अत्र सरणः सामान्यः एव पञ्चपञ्चाशत्तमः श्लोकः तस्मै सभ्यासभार्याय गोत्रे गुप्ततमेन्द्रियाः अर्हणाम् अर्हते चक्रुः मुनयो नयचक्षुषे इदानीं मुनयः तस्य स्वागतीकरणं कुर्वन्ति कथं कुर्वन्ति किमर्थं तथा कुर्वन्ति इत्युक्ते सः एकं चक्रवर्ती अस्ति पुनः राज्याश्रममुनिः इति बहु उत्तमकुले जातः उत्तमः अस्ति सः तादृशस्य स्वागतीकरणे तेषामपि महान् सन्तोषः अतः ते गुप्ततमेन्द्रियाः ते मुनयः सभ्याः ते मुनयः सभार्याय गोप्त्रे अर्हते नयचक्षुषे तस्मै अर्हणां चक्रुः तस्मै दिलीपाय अर्हणां पूजां पूजां चक्रुः पूजां कृतवन्तः स्वागती स्वागतसत्कारं कृतवन्तः अर्हणां कृतवन्तः के कृतवन्तः मुनयः कीदृशाः मुनयः इत्युक्ते गुप्ततमेन्द्रियाः मुनयः पुनः सभ्याः मुनयः गुप्ततमेन्द्रियाः मुनयः इत्युक्ते स्वस्य इन्द्रियाणाम् उपरि तेषां जयः भवति इन्द्रियाणि सम्यक् नियामयन्ति दान्ताः इति वदन्ति किल दान्ताः इन्द्रियस्य दमनं यः करोति सः दान्तः तादृशाः दान्ताः मुनयः
गुप्ततमेन्द्रियाः
रक्षति गोपयति सम्यक् नियमयति कण्ट्रोल् करोति नियन्त्रणं करोति इन्द्रियाणां निग्रहं करोति गुप्ततमेन्द्रियाः अत्यन्तं नियामयन्ति नियन्त्रणं कुर्वन्ति इत्युक्ते तेषाम् इन्द्रियं मनुष्यस्य इन्द्रियाणि दासाः वा अथवा इन्द्रियाणां दासः मनुष्यः वा इति पृच्छन्ति किल सामान्यमनुष्याः इन्द्रियाणां दासाः भवन्ति किन्तु मुनयः इन्द्रियाणां स्वामिनः भवन्ति अतः इन्द्रियाणि सम्यक् निगृह्णन्ति ते तेषां निग्रहणं कुर्वन्ति अतः गुप्ततमेन्द्रियाः ते मुनयः किं कथं ते तथा कर्तुं शक्नुवन्ति एकं तु तेषां स्वभाववशात् एव ते कुर्वन्ति अनन्तरं तपः कुर्वन्ति तादृशमुनयः तपनशीलाः किल तर्हि जनैस्सह व्यवहारे कुशलाः वा इति चेत् आम् कुशलाः सभ्याः सभायां साधवः सम्यक् आचरणमपि जानन्ति केवलं मौनं पालयन्ति इति न ते यथा अपेक्षितं यथास्थानं यथा देशं यथा कालं सम्यक् व्यवहारमपि जानन्ति सभ्याः साधव सभायां साधवः औचित्यम् अनौचित्यं जानन्ति ते मुनयः तस्मै अर्हणां चक्रुः दिलीपाय पूजां कृतवन्तः कीदृशाय दिलीपाय सभार्याय भार्यया सह स्थितस्य तस्य गोप्त्रे गोप्ता नाम रक्षकः केषां रक्षकः प्रजानां रक्षकः गोप्ता गोप्तृशब्दः चतुर्थी विभक्ति गोप्त्रे अर्हते सः अर्हन् अस्ति पूजाम् अर्हेत् खलु कश्चन यस्य पूजा भवति सः पूजा अर्हति वा पूजाम् अर्हति वा आम् अर्हते अर्हन् अस्ति सः पूजाम् अतः चतुर्थी विभक्त्याम् अर्हते तस्मै पुनः सः राजा कीदृशः नयः एव तस्य चक्षु इत्युक्ते नीतिशास्त्रमेव तस्य नेत्रे नेत्रद्वयं नीतिपरायणः इति अर्थः न्यायमार्गेण राज्यं पालयति
गोत्रे किं दातु
प्रातिपदिकं गोप्तृ नेतृ वक्तृ दातृ नेता नेतारौ नेतारः तथा गोप्ता गोप्तारौ गोप्तारः रक्षकः इति अर्थः अस्य भावार्था अस्ति अस्मिन् श्लोके मुनयः कथं राज्ञः राज्ञाः च पूजां कृत्वा स्वागतं कृतवन्तः इति वर्णितमस्ति मुनयः अतिशयेन स्वस्य इन्द्रियाणां नियमनं कृतवन्तः तेषां लोकज्ञानमपि सम्यक् अस्ति अतः एव किम् उक्तमस्ति सभ्याः इति उक्तमस्ति किल सभायां साधवः इदानीम् अत्र विशेषप्रयोगः अस्ति कवेः तद्विषये वयं किञ्चित् विस्तरेण पश्यामः गुप्ततमेन्द्रियाः गोप्त्रे अर्हणां चक्रुः गुप्ततमेन्द्रियाः कर्तृपदं मुनयः गोप्त्रे पूजां यः स्वीकरोति अत्र अत्र प्रार्थनां सामान्यतया शिष्यः एव गुरोः पूजां करोति किन्तु अत्र ते मुनयः राजा अस्ति चक्रवर्ती अस्ति पुनः राज्ञी अस्ति अतः तयोः पूजां सत्कारम् अतिथिसत्कारं कुर्वन्ति अतः गोप्त्रे रक्षकस्य गुप्ततमेन्द्रियाः मुनयः गोप्त्रे दिलीप राजाय पूजां कृतवन्तः इति सः अर्थः तपःशीलाः मुनयः आत्मज्ञानेन स्वस्य इन्द्रियाणि दमयन्ति किल तेषाम् आत्मज्ञानं भवति अतः वेदान्तज्ञानं भवति तेन ज्ञानेन ते किं कुर्वन्ति स्वस्य इन्द्रियाणां दमनं कुर्वन्ति आत्मानं गोपयन्ति स्वस्य रक्षणं ते स्वयं कुर्वन्ति अतः एव तेषां तपःशक्तिः अत्यधिका भवति यां च शक्तिं ते लोकहिताय उपयुञ्जते स्वार्थाय एव न तां समग्रामपि तपःशक्तिं ते लोकहिताय विनियोगं कुर्वन्ति गोप्ता दिलीपः कथं नयविद्यया दण्ड्यान् दण्डयन् प्रजाः राष्ट्रं च रक्षति अतः सः गोप्ता न्यायशास्त्रेण नयशास्त्रेण दण्ड्यानां दण्डनं करोति पूर्वमेव वयं दृष्टवन्तः ये दण्डनम् अर्हन्ति तेषां दण्डः भवति चेदेव अन्येषाम् उत्तमजनानां श्रेष्ठजनानां रक्षणं भवति किल अतः गुप्ततमेन्द्रियाः तपनशीलाः मुनयः दण्डनीतिशास्त्रविदः वित् गोप्ता राजा पदप्रयोगमपि बहु सुन्दरम् अर्थदृष्ट्या अपि बहु गभीरम् अस्ति द्वितीयबिन्दुं पश्यामः सभ्याः सभार्याय सभ्याः मुनयः मुनयस्तु प्रकृत्या साधवः साधुपुरुषः इति वदन्ति किल यस्य उत्तमगुणाः सन्ति सः साधुः इति अपि भवति पुनः सन्यासिनः अपि साधुः इति एकः अर्थः भवति अपि च ते सभायां साधवः देशकालविदः ते औचित्यम् अनौचित्यं जानन्ति इति अर्थः कुत्र केन सह कस्मिन् समये कस्मिन् स्थाने कथं व्यवहर्तव्यम् इत्यादिकं विषयमपि ते अवगच्छन्ति जानन्ति पुनः तपः अपि आचरन्ति इति अर्थः इत्युक्ते तेषां लोकज्ञानं नास्ति इति न तदपि ते सुष्ठु सम्यक् जानन्ति कारणं किं वसिष्ठ मुनेः एव आश्रमस्थाः ते सामान्यतया ऋषयः मुनयः ते त्रिकालज्ञानिनः भवन्ति अतः ते सम्यक् लोकज्ञानमपि तेषाम् अस्ति शास्त्रज्ञानमपि अस्ति इति अर्थः मुनयः नयचक्षुषे मुनयः ते नयचक्षुषे राज्ञे पूजां चक्रुः मुनयः मननात् मौनाच्च मुनिः भवति ते वेदार्थानाम् अध्येतारः तद् मननशीलाः भवन्ति वेदार्थस्य मननं कुर्वन्ति पुनः पुनः तस्य विषये चिन्तनं भवति तेषां श्रुतिः एव चक्षुः एतेषां नेत्रं किं श्रुतिः वेदः एव तेषां चक्षुः राज्ञः चक्षुः किं भवति, राजा कथं पश्यति, पश्यति इत्युक्ते विषयं कथं पश्यति, कथम् अवगच्छति, राज्ञः चक्षुः भवति नयशास्त्रं, मन्त्रालोचनं, गुप्तचराः च. नयशास्त्रं नीतिशास्त्रं, मन्त्रालोचनम् अन्य ये विद्वांसः मन्त्रिणः तदा तदा मन्त्रालोचनं कुर्वन्ति, तदपि सः शृणोति, अनन्तरं यद् करणीयं तद् करोति. गुप्तचराः अपि राज्ञः चक्षुः भवति इत्युक्ते स्पैस्, गुप्तचरान् अन्यदेशान् प्रति प्रेषयन्ति, ततः विषयान् प्राप्नोति. सर्वत्र राजा भवितुं न शक्नोति, गन्तुं न अर्हति, तर्हि सः किं करोति, मन्त्रिणः, सुहृदः, गुप्तचरान् तत्र तत्र योजयति, ते तं वार्ताम् आनीय यच्छन्ति. तां वार्तां श्रुत्वा सः अग्रे किं करणीयम्, अग्रिम मम कार्यप्रणाली का भवति इति सः निश्चिनोति. अतः एव एकः प्रसिद्धः श्लोकः अस्ति, गन्धैः चारैः पश्यन्ति राजानः, वेदैः पश्यन्ति ब्राह्मणाः. ब्राह्मणानां कृते वेदः एव नेत्रं भवति, राज्ञः कृते किं नेत्रं भवति इत्युक्ते चाराः, गुप्तचराः, ते मुनयः नयचक्षुषे राज्ञे अर्हणां चक्रु, अर्हते तस्मै अर्हणां चक्रु, पूज्याय पूजाम् अकुर्वन्. पूज्य पूजा व्यतिक्रमः इति भवति अग्रे एतद् वाक्यं, पूज्यस्य पूजा व्यतिक्रमः न कार्यः, यः पूज्यः भवति तस्मै पूजा कर्तव्या एव, करणीयमेव इति. अतः ते तस्य आदरं कुर्वन्ति, सत्कारं तस्य कुर्वन्ति. अग्रिमं श्लोकं पश्यामः. विधे सायन्तनस्यान्ते सददर्श तपोनिधिम् अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम्. अन्वयः सायन्तनस्य विधेः अन्ते स्वाहया अन्वासितं हविर्भुजमिव, अरुन्धत्या अन्वासितं तपोनिधिं सह ददर्श. सायन्तनस्य पूजाविधेः अन्ते, पूजाविधेः अन्ते स्वाहया हविर्भुजमिव, स्वाहया सह अग्निः भगवान् यथा भवति तथा अरुन्धत्या सह तपोनिधिः वसिष्ठः अस्ति इति सः दृष्टवान्. सः राजा दिलीपः आश्रमस्थैः मुनिभिः विधिवत् कृतां पूजां स्वीकृतवान्, तदनन्तरं मुनेः दर्शनाय अगच्छत्. इदानीं वसिष्ठं तौ न दृष्टवन्तौ, अन्य आश्रममुनयः तस्य स्वागतीकरणं कृतवन्तः. इदानीं सः स्वगुरुं वसिष्ठं द्रष्टुं गच्छन् अस्ति. तत्र सायङ्कालिकस्य जपहोमादि अनुष्ठानस्य अवसाने अन्ते अरुन्धत्या पश्चादुपवेशनेन उपसेवितं तपोनिधिं वसिष्ठं यथा स्वाहादेव्या उपासितम्, अतः एव इतोपि प्रज्वालितं साक्षात् अग्निदेवमिव सः पश्यत्. अत्र एकविषयः द्रष्टुं योग्यः अस्ति, स्वाहया इव हविर्भुजम् इति अस्ति किल, अत्र अन्वासनं पतिव्रताधर्मत्वेन उक्तं न तु कर्माङ्गत्वेन इति अस्ति. अन्वासितं नाम अनु आसितम्, आस् उपवेशने, समीपे उपविशति. कदा पत्नी निश्चयेन पत्युः समीपे उपविशति, यदा यज्ञकार्यं भवति, निश्चयेन वैदिककार्यं भवति, पत्न्या तत्र भवितव्यमेव समीपे. तर्हि अन्वासनम् उपवेशनम् अत्र केवलं कर्माङ्गत्वेन न, कर्म कर्तुं तु उपविशत्येव, किन्तु अन्वासितम् अत्र पतिव्रताधर्मत्वेनापि उक्तम् इति अत्र तात्पर्यम्। अनन्तरम् इतोपि एकः विषयः तत्र द्रष्टुं योग्यः, विधेः सायन्तनस्य विधेः अन्ते इत्युक्ते किम्? कदाचित् यदा दिलीपः सुदक्षिणा च तत्र प्राप्तवन्तौ, वसिष्ठमुनिः यज्ञकार्ये मग्नः आसीत्। यज्ञकार्यमग्नः यदा भवति तदा तस्य नमस्कारः वा तस्य समीपगमनं वा सम्भाषणं वा तद् न करणीयम् इति निरीक्षां कृत्वा यदा विधिः समाप्तः भवति तदा एव करणीयम् इति यदेक श्रुतिवा एकवाक्यमस्ति, जपहोमादि अनुष्ठानं यदा कुर्वन् भवति, समित् पुष्प कुश अग्नि अम्बु मृत् अन्न अक्षतपाणिकः पाणौ यस्य ऋषेः अथवा मुनेः होतुः यस्य अपि हस्ते समित् भवति, पुष्पं भवति, कुशं कुशः भवति, अम्बु जलं भवति, मृत् मृत्तिका, अन्नम् अक्षतम्, एतत् सर्वं हस्ते गृहीत्वा यः यज्ञकार्ये मग्नः भवति तादृशस्य जपहोम कुर्वतः अभिवादनं न करणीयम्। किं करणीयम्? तस्य समाप्तिपर्यन्तं निरीक्षां कृत्वा अनन्तरं तस्य अभिवादनं करणीयम् इति अनुष्ठानस्य मध्ये अभिवादननिषेधः अस्ति, अतः एव विधेः अन्ते। अग्रिमं श्लोकं पश्यामः, सप्तपञ्चाशत्। तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी, तौ गुरुर् गुरुपत्नी च प्रीत्या प्रतिनन्दतुः। श्लोकः, मागधी राज्ञी राजा च तयोः पादान् जगृहतुः। पादान् इति बहुवचनं किमर्थम् इत्युक्ते द्वौ जनः चत्वारः पादाः, गुरुः गुरुपत्नी च प्रीत्या स्नेहेन तौ सुदक्षिणादिलीपौ प्रतिनन्दतुः। अतीव सरलः श्लोकः, अतः अग्रे गच्छामः। अष्टपञ्चाशत्। तमातिथ्यक्रिया शान्तरथक्षोभपरिश्रमं पप्रच्छकुशलं राज्ये राज्याश्रममुनिं मुनिः। अन्वयः, तम् आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः। अन्वयः भवति मुनिः वसिष्ठः आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं राज्याश्रममुनिं तं राज्ये कुशलं पप्रच्छ। प्रतिपदार्थः, मुनिः वसिष्ठमहर्षिः आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं तं दिलीपम् इत्युक्ते पूर्वमेव मुनयः किं कृतवन्तः, वयं दृष्टवन्तः, तस्य अर्हते अर्हणां चक्रुः, अतिथिसत्कारम् अर्घ्यं पाद्यम् आसनं सर्वं यच्छन्ति किल, तत्सर्वं कृत्वा तस्य श्रमपरिहारः जातः दिलीपस्य। तस्य पूर्वं ततोपि पूर्वं रथानां रथ अश्वानां श्रमपरिहारः अभवत्। इदानीं मुनीनां वसिष्ठस्य ये आश्रमे मुनयः सन्ति तेषां सत्कारेण दिलीपस्य अपि किम् अभवत्, मार्ग प्रयाणस्य या प्रयाणेन या श्रान्तिः आसीत् तस्याः श्रान्तेः अपगमः अभवत्, आतिथ्यक्रियया शान्तः अभवत्। आतिथ्यक्रियया अतिथिसत्कारेण, अतिथिसत्कारः इति क्रिया आसीत्, तया क्रियया कः शान्तः? परिश्रमः. कीदृशः परिश्रमः? रथक्षोभपरिश्रमः. रथस्य कम्पनं भवति, दोलनं भवति मार्गे, तेन तस्मिन् यः प्रयाणं करोति तस्य श्रान्तिः भवति, सः बहु श्रान्तः भवति, तस्य परिहारः अभवत्. रथक्षोभ, रथकम्पनस्य कम्पनेन यः परिश्रमः भवति तस्य परिश्रमस्य, सः परिश्रमः शान्तः. तद् केन शान्तः? आतिथ्यक्रियया शान्तः. अतिथिसत्कारं प्राप्य रथप्रयाणेन जाता देहक्लान्तिः यस्य परिहृता, दूरं गता तं दिलीपमहाराजं राज्याश्रममुनिं. पुनः दिलीपस्य एव एकं विशेषणं, यस्य राज्यमेव आश्रमः, मुनितुल्यं राजानं तं दिलीपं राज्ये देशे कुशलं पप्रच्छ, क्षेमं पप्रच्छ. मुनिः आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं राज्याश्रममुनिं तं राज्ये कुशलं पप्रच्छ. अत्र भावार्थः अस्ति, वसिष्ठमहर्षिः स्वभार्यया सह सभार्यस्य दिलीपस्य आतिथ्यम् अकरोत्. वसिष्ठमहर्षिः अरुन्धत्या सह अस्ति, दिलीपः सुदक्षिणया सह अस्ति. अतः दम्पती स्वागतीकरोति किल. रथप्रयाणात् जातः देहक्लेशः तस्य परिहृतः. तदनन्तरं मुनिः रघुवंशकेतुं दिलीपं प्रति राज्यस्य क्षेमसमाचारम् अपृच्छत्. अत्र दिलीपः महाराजः चेदपि राज्याश्रममुनिः इति वर्णितः. सः राजपीठम् अलङ्करोति किन्तु मुनिः इव अनासक्तः, तस्य आसक्तिः नास्ति किल, अनासक्तः सन् कर्तव्यताभावेन राज्यकार्यं निर्वहति. मम कर्तव्यम् इदम्, अतः अहं करोमि, देवेन एतत् कार्यं दत्तं मह्यम् इति विचिन्त्य सः कार्यं करोति. मम राज्यम्, अहं राजा इति भावेन न करोति इति अर्थः. राज्ये कुशलं पप्रच्छ इति पदमस्ति किन्तु तत्र अर्थः अस्ति राज्यम् इत्युक्ते किम् इत्युक्ते स्वामी, अमात्यम्, अमात्यः, पुरं, राष्ट्रं, कोशः, दण्डः तथा सुहृत्. सप्त एतानि समस्तानि लोके अस्मिन् राज्यम् उच्यते. राज्यं नाम तत्र सप्त अङ्गानि भवन्ति. कानि तानि? स्वाम्यम्. स्वाम्यम् इत्युक्ते महाराजस्य यद् स्थानमस्ति किल तद् स्वाम्यम्. अमात्यः, तत्र मन्त्रिणः. पुरं, राजधानी, नगरं. राजधानी सुरक्षिता भवति चेदेव समग्रं राज्यमपि सुरक्षितं भवति. राष्ट्रं, राष्ट्रम् इत्युक्ते राष्ट्रस्य भौगोलिकक्षेत्रं, विस्तीर्णं क्षेत्रं. कोशः, राजकोशः, ट्रेजरि. दण्डनीतिः, दण्डनम्. कोशदण्डौ, दण्डः इत्युक्ते दण्डनीतिः, दण्डविधानं, राज्ये दण्डव्यवस्था. तथा सुहृत्. सुहृत् नाम राज्ञः मित्राणि, राज्ञः हितचिन्तकाः, ये राज्ञः हितं चिन्तयति. न केवलं स्वदेशे, विदेशे अपि तस्य मित्राणि भवन्ति किल, अन्यराजानः, लघुराजानः, ये एतस्य अधीने सन्ति, ते सर्वे अपि एतस्य सुहृदः तथा सुहृत्. सप्त एतानि समस्तानि अस्मिन् लोके राज्यम् इति उच्यते. तर्हि मुनेः प्रश्नस्य राज्यं कथमस्ति इत्यस्य प्रश्नस्य उत्तरं किम्? सर्वमपि कुशलं वा? स्वाम्यं, भवतः अधीने सर्वम् अस्ति वा? भवान् पूर्णनियन्त्रणं कुर्वन् अस्ति वा? अथवा भवान् किमपि न जानाति कुत्र विषयाः तादृशं किमपि चलति वा राज्ये, सर्वमपि भवान् जानाति वा, मन्त्रिणः किं कुर्वन्ति, सेनापतिः किं करोति, गुप्तचराः कुत्र गच्छन्ति, किं कुर्वन्ति, अन्य अधिकारिणः न्यायाधीशाः किं कुर्वन्ति, सर्वमपि भवतः ज्ञाने अस्ति वा इति पृच्छति. स्वाम्यम्, अमात्याः सर्वे सम्यक् कार्यं कुर्वन्ति वा, पुरं राजधानी सम्यक् रक्षिता अस्ति वा, राष्ट्रं राज्यस्य सर्व सीमा सुरक्षिता अस्ति वा, कोशः धनं धनपूर्णम् अस्ति वा, धनपूर्णः अस्ति वा कोशः, दण्डनीतिः कथमस्ति राज्ये, चोराः दुष्टाः दण्डिताः चेदेव सज्जनाः सुरक्षिताः भवन्ति. सुहृत् अन्ये लघुराजानः अन्ये हितचिन्तकाः भवतः हितम् आचरन्ति वा इत्यादिकमेव एकपदं राज्यम् इति पदस्य उत्तरं भवेत्. अग्रिमम् एकम् इतोपि पश्यामः वा? अस्तु, नवपञ्चाशत्. अथाथर्वनिधेस्तस्य विचितारिपुरः पुरः अर्थ्याम् अर्थपतिर्वाचम् आददे भद्रतां वरः. अन्वयः भवति अथ विजितारिपुरः वदतां वरः अर्थपतिः अथर्वनिधेः तस्य पुरः अर्थ्यां वाचम् आददे. अथ तदनन्तरं कुशलप्रश्नानन्तरं विजितारिपुरः विजिताः अरिपुराः येन सह, विजितानि अरिपुराणि, पुरम् इत्युक्ते नगरम्, अरेः शत्रूणां नगराणि येन जितानि, तादृशः दिलीपराजः. वदतां वरः, ये वदन्ति वक्तारः सन्ति तेषु श्रेष्ठः. अर्थपतिः विभवानां स्वामिः धनपतिः. अर्थपतिः कस्य पुरतः उक्तवान्? अथर्वनिधेः, अथर्ववेदस्य आकारभूतस्य, आकरभूतस्य, अथर्ववेदस्य आकरभूतः वसिष्ठः. आकरः इत्युक्ते मैन्, मैन् आफ् नालेज् इति वदन्ति किल, तत् अथर्ववेदस्य निधिः सः. तस्य पुरः, तस्य पुरतः अग्रे अर्थ्याम् अर्थादनपेताम् अर्थवत् अर्थपूर्णं वाचं वाणीम् आददे, वक्तुम् आरब्धवान्. दिलीपचक्रवर्तिना शत्रूणां नगराणि स्वायत्तीकृतानि आसन्. शत्रूणां नगराणि सः स्व अधीने आनीतवान्. कथं? युद्धं कृत्वा, पराक्रमेण. गुरोः कुशलप्रश्नानन्तरं सः विभवानां स्वामी, वक्तृणां श्रेष्ठः राजा दिलीपः, अथर्ववेदस्य मुनेः वसिष्ठस्य अग्रे अर्थ्यां वाणीं वक्तुम् उपक्रान्तवान्, आरब्धवान्. अत्र द्वित्रविषयाः द्रष्टुं योग्याः भवन्ति. एकं तु अथर्वनिधिः इत्यनेन कः अर्थः? अथर्वनिधेः इत्यनेन पुरोहितकृत्य अभिज्ञत्वात् तत् कर्मनिर्वाहकत्वं, वसिष्ठस्य दायित्वमस्ति, पौरोहित्यम् इति. राजपुरोहितः सः, तेषां इक्ष्वाकुकुलस्य एव पुरोहितः किल सः अथर्वनिधिः इति चेत् सः अथर्ववेदस्य आकरभूतः, सम्यक् ज्ञाता, तेषां मार्गदर्शनं सम्यक् करोति. कस्मिन् कस्मिन् विषये सः पुरोहितः कुशलः स्यात्? त्रय्यां, त्रिषु वेदेषु, ऋग् यजुस्साम, दण्डनीत्यां, दण्डनीतौ सः कुशलः स्यात् पुरोहितः. अथर्वविहितं कुर्यात् नित्यं शान्तिकपौष्टिकम्, अथर्वविहितम् अथर्ववेदे यथा उक्तं तथा सः मार्गदर्शनं कुर्यात् महाराजस्य. चाणक्यनीतौ अपि किम् उक्तमस्ति इत्युक्ते, किमर्थम् इत्युक्ते मुनेः दायित्वं तथा भवति, राजा राष्ट्रकृतं पापं, राज्ञः पापं पुरोहितः, भर्ता च स्त्रीकृतं पापं शिष्यपापं गुरुस्तथा इति श्लोकः. प्रजाभिः कृतं पापफलं राजा उपभुङ्क्ते, राज्ञा सहनीयः भवति, सहनीयं भवति. राज्ञा कृतं पापफलं पुरोहितः उपभुङ्क्ते. स्त्रिया कृतं पापफलं भर्ता पतिः उपभुङ्क्ते. शिष्येण कृतं पापफलं गुरुः सहते. अतः राज्ञः महान् दायित्वं चेत् ततोपि महत्तरः दायित्वं कस्य भवति? पुरोहितस्य. अतः अथर्वनिधेः इति पदम् अत्र उक्तमस्ति. सम्यक् ज्ञानं भवति चेदेव सः राज्ञः मार्गदर्शनं कर्तुम् अर्हति. अर्थ्यां वाचम् अर्थाद् अनपेतां वाणीं उक्तवान्. अत्र गीतातः एकः श्लोकः अस्ति, वाङ्मयं तपः. यः वचनं वदति तस्य वचनं यदि सः तपनशीलः सम्यक् वाक् तपः करोति चेत् तस्य वाक् एवं भवति, भवेत्. कीदृशं भवेत् इत्युक्ते अनुद्वेगकरं वाक्यं, सत्यं प्रियहितं च यत्, स्वाध्यायाभ्यसनं चैव, वाङ्मयं तप उच्यते. वाणी शुद्धा स्यात्, तदर्थं किं करणीयम् इत्युक्ते एतस्य अभ्यासः करणीयः. कीदृशवचनस्य अभ्यासः? अनुद्वेगकरं वाक्यम्. अस्माकं वचनेन कस्यापि उद्वेगः, कस्यापि मनसः चलनं न भवेत्, कस्यापि प्रकोपः न भवेत्, सत्यावाक् भवेत्, प्रियहितं भवेत्, प्रियं च भवेत्, हितं च कुर्यात्. स्वाध्याय अभ्यसनं, स्वाध्यायं कृत्वा इत्युक्ते मननम् इति, श्रवणं मननम् एतत् सर्वं भवेत्. अभ्यसनं, पुनः पुनः एतादृशवचनप्रयोगस्य अभ्यासः. एतदेव वाङ्मयं तपः इति उच्यते गीतायाः वाक्यं, वाक् इत्यस्य विषये. अतः राजा तादृशं वचनं वदति, अर्थ्या वाक् इति अर्थः. एवं कुर्मः. अग्रिमपञ्चश्लोकान् यद् दिलीपः राज्यविषये वदति तद् अग्रे कुर्मः. अद्य एतावता स्थगयामः.
वयम् अन्वयं कर्तव्यम्.
60-61 तु कृतमस्ति, 62 अनन्तरं करणीयम्.
अग्रिमवर्गे.
आम्, अग्रिमवर्गे इत्युक्ते इदानीं तृतीयदिनाङ्के तु भवन्तः मेलिष्यन्ति, ततोपि अग्रे सोमवासरे वयम्.